सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा अथवा विद्यया विद्या चतुर्थो नोपलभ्यते. इत्युक्ते पूर्वस्मिन् काले विद्यार्जनाय त्रयः मार्गाः आसन्. प्रथमः मार्गः अस्ति गुरुशुश्रूषया विद्या, इत्युक्ते गुरुसेवया छात्राः विद्यां प्राप्नुवन्ति स्म. द्वितीयः मार्गः पुष्कलेन धनेन वा, इत्युक्ते यथेष्टं धनम् अथवा पर्याप्तं धनं दत्त्वा धनिकाः विद्यां प्राप्तवन्तः. तृतीयः मार्गः अस्ति विद्यया विद्या, इत्युक्ते एकस्याः विद्यायाः विनिमयेन अन्या विद्या प्राप्यते. इत्युक्ते अत्र विनिमयः इत्युक्ते एक्स्चेञ्ज्, तेन अन्या विद्या प्राप्यते. अत्र सुभाषितकारः वदति चतुर्थः मार्गः नास्ति एव, परन्तु अहं चिन्तयामि इदानीन्तनकाले चतुर्थः मार्गः अपि अस्ति यथा वयं कुर्मः. अधुना वयम् अन्तर्जालमाध्यमेन वा अथवा दूरवाण्या संस्कृतभाषायाः अध्ययनं कुर्वन्तः स्मः. इत्युक्ते अधुना गुरुशुश्रूषायाः आवश्यकता नास्ति, पुष्कलधनस्य आवश्यकता अपि नास्ति. अत्र पठनार्थं श्रद्धां विना किमपि न आवश्यकम्. तदर्थमेव वयं सर्वे अत्र मिलित्वा संस्कृतभाषायाः अवगमनार्थं श्रद्धया प्रयत्नं कुर्मः. किमर्थं चेत् भगवद्गीतायां श्रीकृष्णः उक्तवान् यत् श्रद्धावान् लभते ज्ञानम्. अतः वयं सर्वे अत्र संस्कृताध्ययनं कुर्मः. उत्तमम्. अनन्तरम् अत्र गते सप्ताहे वयं चत्वारि नूतनानि पदानि परिशीलितवन्तः. एव, इति, अपि च, इत्युक्ते पदचतुष्टयं. परन्तु अस्माकम् अवगमनं कथमस्ति इति ज्ञातुम् अधुना किञ्चित् चिन्तनं कुर्मः एतेषां पदानां विषये, अपि च एतानि पदानि वाक्ये कथं संयोजितानि भवन्ति, अपि च तेषाम् उपयोगः कथं भवति, कीदृशरीत्या एतेषां पदानाम् उपयोगं कुर्मः इत्यपि अधुना वयं चिन्तनं कुर्मः. अपि च अत्र गृहपाठरूपेण वाक्यानि रचयन्तु इति अत्र दत्तमस्ति. सर्वे श्रावयन्तु वाक्यानि. प्रथमतया अत्र गीताञ्जलि भगिनी भवती श्रावयतु.
अस्तु भगिनी. शोभा भगिनी साहाय्यं करोति वा?
आं भगिनि.
अस्तु.
अहम् आरम्भं करोमि वा?
द्वे सख्यौ पाकशालायां मिलितः उभे महिले पक्तुम् इच्छतः अथवा सम्भाषणं कुरुतः. आरम्भं करोति वा शोभा भगिनी?
आं भगिनि. पूनम्. अहं पूनम्. अद्य किं पचसि सखि?
अहं सुधा. अद्य मम पुत्री महोटी आलुकं च इच्छति.
महोटी आलुकेन सह अस्ति वा?
आं सखि, महोटी आलुकेनैव सह.
रोट्यः ओदनः अपि च पचसि वा?
आम्, रोट्यः किञ्चित् राग्दलिः अपि च नूतनदधिः इच्छामि इति सा प्रातःकाले उक्तवती.
भगिनी, अत्र रोटिकाः वा अत्र पदम्?
रोटिकाः. अस्तु,
किमपि आम् अस्तु.
रोटिकाः किञ्चित् राग्दलिः अपि च नूतनदधिः इच्छामि इति सा प्रातःकाले उक्तवती.
वाह सखी उत्तमं विचारः अकरोत् भवत्याः पुत्र्याः मह्यम् एव तानि रुच्ये.
अत्र रोचते इति पद रोचते इति पदस्य उत्तमपुरुष एकवचनरूपम् उक्तवती भगिनि. शोभा भगिनी भवती रोच्ये इति तत्र रूपं किम्?
रोचते
इति पदस्य उत्तमपुरुषरूपम्
उत्तमपुरुषरूपं रोचेते रोचन् न न हा रोचते उत्तमपुरुष एकवचन.
अस्तु. अनन्तरम् अत्र तस्मात् पूर्वम् इच्छति इच्छति इति क्रियापदम् उक्तमस्ति. इच्छति इति पदम् अत्र कर्मपदं सम्भवति. इत्युक्ते अहं किमिच्छामि, मधुरम् इच्छामि अथवा तथा भवति. अत्र तस्मिन् वाक्ये गीताञ्जलिभगिनी वदतु, इच्छति इति पदात् पूर्वं कर्मपदं कृत्वा.
मया इच्छति इच्छति
सा वदति, सा किमपि इच्छति इति उक्तवती. किम् इच्छति सा?
सा रोटिकाः किञ्चित् रागदधिः अपि च नूतनदधिः इच्छामि इच्छामि इति सा प्रातःकाले उक्तवती.
अस्तु.
मह्यम् एव तानि रोचे रोचते आत्मपदे उत्तमपुरुष एकवचन.
मह्यं रोचते, मह्यं रोचते इति प्रयोगः अस्ति. तत् इत्युक्ते रोटिका मह्यं रोचते. साधारणतया रोचते तत्र क्रियापदं विशेषक्रियापदम्. अत्र साधारणतया चतुर्थविभक्तेः उपयोगं कुर्मः.
भगिनी मम एकः सन्देहः, यथा वन्दते प्रथमपुरुषे अस्ति, रोचते नास्ति वा प्रथमपुरुषे? रोचे अस्ति वा उत्तमपुरुषे? मम रोचे
अत्र अत्र वन्दते इति पदस्य उत्तमपुरुषरूपम् अहं वन्दे, यथा वर् तथा एव वर्ते, तथा एव रोचते इति क्रियापदस्य द्रष्टव्यं भगिनी. अत्र भवती उक्तवती
गीताञ्जलिभगिनी अत्र मह्यम् एव तानि रुच्ये इति
अत्र पश्यतु भगिनि, रोचे रोचे एव अत्र दत्तमस्ति. रोचते रोचेते रोचन्ते रोचे
रोचे मह्यं रोचे
रोचे.
ओके.
साधारणतया साधारणतया वाक्यं कर्मणि प्रयोगे अस्ति चेत् तत्र यक् भवति. यक् इत्युक्ते यकारः आगच्छति. रोच्ये इति वदामश्चेत् तत्र क्रियापदं कर्मण्यर्थे अस्ति इति अर्थः. रोच्ये इति पदमपि अस्ति, परन्तु रोचे एव केवलं कर्तृर्थे वदामश्चेत् कर्तृर्थे कर्तरिप्रयोगे वाक्यमस्ति चेत् आत्मनेपदिरूपाणाम् उत्तमपुरुषे एकवचनरूपं, यथा वन्दे वर्ते रोचे तथा भवति. परन्तु रोचते इति वदतु भगिनि.
भगिनी रोचते इति विशेषक्रियापदानि सर्वे रूपाणि प्रेषितवती वा?
प्रेषयामि प्रेषयामि. परन्तु रोचते इति एकैकस्य क्रियापदस्य भिन्नभिन्नविभक्तिः भवति. इत्युक्ते अत्र रोचते इति पदं योजयित्वा वदामश्चेत् साधारणतया मह्यं रोचते, तुभ्यं रोचते वा, तथा चतुर्थी विभक्तेः उपयोगं कृत्वा वदामः.
अस्तु अस्तु भगिनि,
तत्र एकः विशेषः अस्ति, तथा एव बिभेति, भि धातोः बिभेति अस्ति चेत् तत्र पञ्चमीविभक्तेः उपयोगं कुर्मः, तथा केचन धातव तत्र धातुः विशेषधातुः अस्ति चेत् तत्र विशिष्टविभक्तेः उपयोगं कुर्मः. अनन्तरम् अग्रिमं वाक्यम्, इतोपि सम्भाषणम् अस्ति वा?
इतोपि न भगिनि, गीताञ्जलि भगिनि, इतोपि अस्ति न?
इतोपि अस्ति, अस्ति
नास्ति वा?
तावदेव भगिनि.
अस्तु अस्तु, इत्युक्ते अत्र सम्भाषणं लिखतु, इत्युक्ते एतेषां चतुर्णां पदानाम् उपयोगं कृत्वा एकं सम्भाषणं लिखतु, तदर्थे एव अत्र भवत्यौ लिखितवन्तौ. लिखितु
अस्मिन् भवती एव लिखितवती भगिनि.
ओ, केवलं गीताञ्जलि एव लिखितवती?
अधुना एव भगिनी मां प्रेषितवती.
नमस्ते महोदय,
क्षम्यतां,
क्षम्यतां, बहु विलम्बेन आगतवती.
अस्तु अस्तु, अधुना अत्र
गृहपाठं कृतवन्तः महोदय?
भवती कृतवती वा?
आम्, अहं कृतवती भगिनि, यदि सर्वे कृतवन्तः अहं वदामि,
श्रावयामि.
किञ्चित् दोषः अस्ति, क्षम्यताम्, अहं प्रयत्नं कृतवती.
वयं सर्वे तदेव कुर्मः अत्र.
आं भगिनि, मम मम अथवा मम सखी सख्यां सम्भाषणम् अहं लिखितवती. अहं पृच्छामि भगिनी, श्वः मन्दिरं गमिष्यामः किम्? मम सख्याः नाम अस्ति स्वरूपा, किमर्थं श्वः मन्दिरं गमिष्यामि?
अत्र भगिनि, अत्र नामः इति न वदामः, किमर्थं चेत् तत्र नाम इति पदं वयं पूर्वमेव चर्चितवन्तः, नकारान्तपदं नाम, मम नाम. उत्तमं.
सख्याः नाम इति वदामः भगिनि?
सख्याः नाम
स्वरूपा. आम्, स्वरूपा वदति किमर्थं श्वः मन्दिरं गमिष्यामि. अहं वदामि, श्वः एकादशायां बहु प्रमुख एकादशी भविष्यति, शयन एकादशी पर्वदिनम् अस्ति भविष्यति. स्वरूपा वदति, एवं वा, अस्तु, तत्तु अवश्यं गमिष्यामि. अहं वदामि, काः आगच्छन्ति अस्माभिः सह? सम्यक् वा भगिनि, काः आगच्छन्ति?
इत्युक्ते भवती स्त्रीलिङ्गे वक्तुम् इच्छति.
आम् आम् आम्, काः आगच्छन्ति अस्माभिः सह? तृतीयसह इति यदि उपयोगं कुर्मः, तृतीया विभक्तौ अस्ति इति अहं लिखितवती. स्वरूपा वदति, लक्ष्मीः, सुनीता, अर्चना च निःशंशयम् आगच्छन्ति. अहं वदामि, माधवी अपि आगच्छति वा? स्वरूपा वदति, तर्हि माधवी आगच्छति, तर्हि बहु सन्तोषः, मिलित्वा विष्णुसहस्रनाम पठनं करिष्यामः. आम्, अहं वदामि, कुत्र मेलिष्यामः? स्वरूपा वदति, अहमपि तदेव चिन्तितवती. अहं वदामि, चिन्ता मास्तु, मम गृहे एव करिष्यामः. एतं विषयं श्रुत्वा मम श्वशुरः च परमानन्दम् अनुभविष्यन्तः.
परमानन्दं अनुभविष्यन्तः
अनुभविष्यन्तः भगिनि,
तत् किमर्थम् अनुभविष्यन्ति इति बहुवचने वदामः?
अनुविष्टः द्विवचने अनुविष्टः
भविष्यति
भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यतः भविष्यथ भविष्यामि भविष्यावः भविष्यामः
तावदेव इत्युक्ते द्विवचने भविष्यतः अनन्तरम् अनु उपसर्गं योजयामः
आम् आं भगिनि आम्
उत्तमं तावदेव
तावदेव भगिनि
अस्तु अस्तु उत्तमम् अनन्तरम् अधुना सतीश् महोदय भवान् श्रावयतु
अहं वार्तां न लिखितवान्
वदतु वाक्यानि
च उपयोगं कृत्वा अहं सर्ववाक्यानि लिखितवन्तः रामसीतालक्ष्मण च वनम् अगच्छन्त् सर्वतो उत्कृष्टछात्रः एवम् उपयुज्य उत्कृष्टछात्रः एवं प्रथमपुरस्कारं प्राप्नोति न च अपरे न च अन्ये छात्राः पुनः वदामि सर्वतो उत्कृष्टछात्रः एवं प्रथमपुरस्कारं प्राप्नोति न च अपरे न च अन्यछात्राः अपरेऽर्थं न च अन्यछात्राः
न तु अन्यछात्रः
इति उपयोगः अहं स्वकीया बन्धूनां न मारयामि इति अर्जुनः उवाच अहं स्वकीया बन्धूनां न मारयामि इति अर्जुनः उवाच
अस्तु महोदय अत्र वाक्यम् एकवारं पश्येम अहं बन्धून् न मारयामि अहं बन्धून् न मारयामि इति अर्जुनः अवदत् उवाच पश्यन्तु अत्र उवाच इति पदमस्ति वयं न जानीमः तस्मिन् विषये उवाच इत्युक्ते लिट् लकारः तत्र बहु अग्रे गत्वा वयं तस्मिन् विषये पठिष्यामः वच् धातोः लिट् लिट् लकाररूपम् उवाच अवदत् इत्यपि योजयामः अवदत् साधारणलङ्रूपं
सः मम भार्या अपि मह्यं सः विपणीं गच्छति
विपणीं गच्छति भवान् अहं गच्छ तत्र पुनः वाक्यं वदतु महोदय
मम भार्या अपि मह्यं सह विपणीं गच्छति सारि मया सह विपणीं गच्छति
विपणीं गच्छति अस्तु अनन्तरम्
अनन्तरम् इति मम वाक्यानि
अस्तु महोदय उत्तमम् अनन्तरम् अधुना अत्र शोभा भगिनी भवती वदतु
आं भगिनि सम्भाषणं चरवाण्याः माध्यमेन अहम् अपि मम सखीं सह अस्ति मम सखी अधुना क्षम्यतां भगिनी उद्याने विहारणं कर्तुम् आगच्छति वा अहम् अधुना किञ्चित् कार्यम् अस्ति सायङ्काले गच्छामः सखी भवती किं करोति अहं ह्यः सस्यालये गतवती खलु ततः बहूनि सस्यानि आनीतवती, तानि अधुना मम उद्याने स्थापयामि. सखि, के के सस्यानि क्रीणितवती? अहं
क्रीतवती.
ओ, क्रीतवती. हा, क्रीतवती. अहं, भवती जानाति एव मां भिन्नभिन्नरीत्या पुष्पाणि मोदते. अहं पाटलकुसुमं, जपाकुसुमं, सेवन्तिका, मल्लिका, सूर्यकान्तिः च सस्यानि क्रीतवती. सखि, भवतीं कमलपुष्पस्य सस्यस्य अपि अन्वेषणम् आसीत् खलु? तत् अपि न क्रीतवती किम्? अहं, न भोः, तत्तु मम अपि अतिप्रियः पुष्पं, किन्तु तत्र न आसीत् एव. आपणकारः उक्तवान् ते सस्यानि अग्रे वासरे आगच्छन्ति इति.
तानि सस्यानि.
हा, सखि, एवं वा, अस्तु, भवती कार्यं करोतु, सायङ्काले मिलामः.
अस्तु, अनन्तरम् अत्र आचार्यमहोदय भवान् श्रावयतु.
महोदय, अहं सम्भाषणं न कृतवान्, किञ्चित् एव कानिचन श्लोकाः सन्ति, तदेव अहं श्रावयामि. एव, तमेव माचा पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव, त्वमेव विद्यं सविणं त्वमेव, त्वमेव सर्वं मम देवदेव इति. एव अपि अपि पुनरपि जननं त्वमेव माता, त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव, त्वमेव विद्यं द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव.
एकवारं वदतु तस्य अर्थः कः स्वस्य वाक्यैः.
त्वम् एव मम माता अस्ति, त्वमेव मम पिता अस्ति, त्वम् एव मम बन्धुः च अस्ति, त्वम् एव मम सखा अस्ति, सखा, त्वम् एव मम विद्या अस्ति, त्वमेव मम धनम् अस्ति, त्वमेव सर्वं मम सर्वम् अस्ति, हे देव, मम देवदेव इति. अनन्तरम् अपि, पुनरपि जननी जठरे शयनम्, इह संसारे बहु दुस्तारे कृपया पारे पाहि मुरारे.
अत्र
हा जीवनचक्रम् ऐ मीन् अस्माकं अर्थः अस्ति भजगोविन्दम् इति श्लोकात् अस्ति. ऐ मीन्
महोदय, अत्र अहं भवान् जानाति इति, परन्तु अहं किञ्चित् वदामि. अत्र भजगोविन्दम् इति
तस्य अन्यनाम
अस्ति. तस्य अन्यनाम मोहमुद्गरम्. तस्य एक्चुअली इट्स् ओरिजिनल् नेम् इस् मोहमुद्गरम्. परन्तु तत्र प्रत्येकस्मिन् श्लोके इति आगच्छति इति कृत्वा वयं सर्वे भजगोविन्दम् इति वदामः. परन्तु तस्य नाम मोहमुद्गरं. वदतु महोदय.
एतत् शङ्करः भगवन्तं प्रार्थयति, कृपया इह संसारात् मुक्तिं देहि इति. किम् इत्युक्ते, अत्र जननमरणस्य चक्र अस्ति, ततः मुक्ति देहि इति. बहु कठिनमस्ति संसारे जीवितुम्. अतः जीवन्मरण सैकल् चक्रात् मुक्तिं देहि इति प्रार्थयति.
उत्तमम् इत्युक्ते अत्र अपि उत्तमः श्लोकः. पुनरपि जननं, पुनरपि मरणम्. अत्र पश्यन्तु, पुनः योगः अपि तत्र किम् अभवत् अत्र रेफः आगतः पुनरपि मरणं तत्र विसर्गस्य स्थाने रेफः आगतः तथा एव पुनरपि मरणम् अत्र जननं मरणम् इति पदानि ल्युडन्तपदानि जन्धातोः ल्युट् रूपं जननं म्रियते मृधातुः अत्र म्रियते इति आत्मनेपदिरूपम् अस्ति तस्य ल्युडन्तरूपं मरणम् अत्र रेफः अस्ति इति कारणतः णत्वम् अभवत् पुनरपि मरणं पुनरपि जननं अनन्तरं
पुनरपि मरणं पुनरपि जननी जठरे शयनं पुनरपि जनन्याः जठरे जननार्थं पुनः वयं माता जठरे
जठरम् इत्युक्ते उदरम्
उदरे उदरे अत्र उदरम् अर्थः अस्ति जठर इत्युक्ते पुनः गच्छति पुनः वयं पुनः मातुः उदरे पुनः शयनम् इत्युक्ते पुनः पुनर्जन्मार्थं शयनम्
अस्तु इत्युक्ते अत्र शीङ् अत्र शीङ् धातुः अस्ति शीङ् धातुतः आत्मनेपदिरूपं शेते शेते इति आत्मनेपदिरूपम् अपि च शयनम् इति पुनः ल्युडन्तरूपं पुनरपि जननी जठरे शयनम् अनन्तरं
इह संसारे बहु दुस्तारे दुस्तरमस्ति इह संसारं कृपया पारे पारयतु पारे इत्युक्ते क्रास् ओवर् इति
इत्युक्ते अत्र वयं सर्वे वयं सर्वे जानीमः एव पारं गतः पारम् इत्युक्ते लैक् अदर् शोर् रीचिङ्ग् द अदर् शोर् रीचिङ्ग् द अदर् शोर् इत्युक्ते पारं पारम् इत्युक्ते शोर् अत्र कृपया पारे पाहि मुरारे अत्र पाहि इत्युक्ते अत्र पा धातुः पाति पाति इत्युक्ते संस्कृतभाषायां पा इति धातु यथा दा धातुतः ददाति इति रूपम् आगच्छति पा धातोः लट्लकाररूपं पाति पाति इत्युक्ते अत्र रक्षति इत्यस्मिन् अर्थे
रक्षति
अत्र पाहि पाहि रूपं वदतु महोदय पाहि इत्यस्य रूपं किम्
पाहि 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 मुरारे उत्तमपुरुष एकवचनम् अस्ति उत्तमपुरुष सोरि उत्तमपुरुष अस्ति पाहि
न महोदय अत्र वंशसुधा भगिनी वदतु पाहि इति शब्दस्य रूपं किं वंशसुधा भगिनी
पाहि
वदति वा भगिनि अत्र पाहि देहि एतानि पदानि मध्यमपुरुष एकवचनं लोट्लकार मध्यमपुरुष
मां रक्षतु अस्ति वा भगिनि
मां रक्षतु मां रक्षतु रक्ष अत्र धातुः पा धातोः रूपं पाहि भवति अत्र दा धातोः अत्र रूपं देहि भवति परन्तु लोट्लकार मध्यमपुरुषे एकवचनम् अत्र पा धातोः रूपं पिबति अपि अस्ति परन्तु पिबति इति इत्यस्मिन् विषये पा धातोः अर्थः पानं परन्तु अत्र पाति इत्युक्ते रक्षति तदर्थमेव मां पाहि इति पदमपि इति प्रयोगः अपि अस्ति मां पाहि इत्युक्ते मां रक्षतु उत्तम अत्र प्रथमपुरुषरूपं रक्षतु परन्तु पाहि वदतु
भिक्षां देहि त्राहि मां
त्राहि अपि अस्ति भिक्षां देहि अपि अस्ति भगिनि उत्तमं ब्रूहि अपि अस्ति ब्रूहि
इत्युक्ते
ब्रूहि मुकुन्देति इत्युक्ते अत्र मुकुन्द इति अत्र अस्माकं विषयः अस्माकम् अद्य विषयः अस्ति इति पदमपि अस्ति तत्र मुकुन्द इति ब्रूहि इति ब्रूहि इत्युक्ते त्वं ब्रूहि किं ब्रूहि मुकुन्द इति ब्रूहि
रसने ब्रूहि मुकुन्दे रसने
रसने उत्तमं रसने इत्युक्ते रसना इत्युक्ते जिह्वा
जिह्वा
हे जिह्वे अथवा हे रसने मुकुन्द इति ब्रूहि मुकुन्द इत्युक्ते यः मुक्तिं ददाति सः मुकुन्दः तदर्थमेव हे रसने रसना इत्युक्ते वयं जानीमः टङ्ग् जिह्वा हे रसने मुकुन्द इति ब्रूहि शोभा भगिनी वदतु किं वक्तुमिच्छति
तदेव भगिनी ब्रूहि तन्मे ब्रूहि पितामहः इति अस्ति तन् मे इत्युक्ते मां ब्रूहि तन् तत्र तन् मे
न भगिनि अत्र किं भवति इत्युक्ते तन्मे तत्र तत् योगः मे तत्र अनुनासिकसन्धिः भवति तत्र अनुनासिकसन्धिः भूत्वा तकारस्य स्थाने नकारादेशः भवति तत्र एरोनुनासिकेनु नासिको वा इति अनुनासिकसन्धिः भवति परन्तु अत्र मे तस्मिन् वाक्ये मे इत्यस्य अर्थः अस्मच्छब्दः अस्मच्छब्दः तत्र मे इत्यस्य अर्थः चतुर्थ्याम् अस्ति अपि च षष्टिविभक्तौ अपि अस्ति परन्तु वाक्यं दृष्ट्वा तत्र किं भवति इति द्रष्टव्यं
मे मह्यं मे अत्र अत्र
मम मे एव मम मे अपि अस्ति मह्यं मे
मह्यं मे अपि अस्ति
विकल्पेन रूपद्वयम्
अत्र तन् मे तत् मे सो दट् टु मी you tell bruhi
तत्र वाक्यम् अहं न श्रुतवती तदर्थं न वक्तुं शक्नोमि तन्मे तन्मे ब्रूहि परन्तु अहं न श्रुतवती तदर्थम् अहं न जानामि किं अन्य कोऽपि अत्र जयन्त् महोदय अस्ति महोदय वदति वा वाक्यानि जयन्त् महोदय केवलं शृणोति वा अस्तु अत्र हेमा भगिनी
अस्ति
चा अपि वदतु महोदय चा इत्यस्मिन् विषये
अन्यपि एकं श्लोकम् अस्ति कृष्णञ्च बलभद्रञ्च वसुदेवञ्च देवकीं नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत् इति कृष्णजन्माष्टमी समये वयं कृष्णस्य पूजां
अस्तु एकवारं वदतु तदेव एकवारं
कृष्णं च बलभद्रं च वसुदेवं च देवकीं नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत्
इत्युक्ते सर्वाणि पदानि द्वितीयाविभक्तौ सन्ति
आदिपविभक्तौ
सर्वाणि पदानि द्वितीयाविभक्तौ सन्ति अपि च अत्र पूजयेत् इति क्रियापदं पूजयेत् इत्यस्मिन् विषये वदतु महोदय रूपं किं
पूजयेत् पूजयेत् इति पूजयेत् भवेत् पूजयेत् पूजयेत् पूजां करोति इति लो पूजयेत् विधिलिङ्गकार
विधिलिङ्ग अपि च पुरुषः वचनं वदतु
पूजयेत् एकवचनमस्ति
अपि च प्रथमपुरुष
एकवचन एकवचन
अस्तु अनन्तरम्
अनन्तरं किमपि नास्ति श्वस्तनकार्यम् अद्य एव कुरु श्वः किं भवति इति को जानाति इति एव अत्र एतदेव तावदेव भगिनि
उत्तमं महोदय धन्यवादः अनन्तरम् अत्र 9.0 वदतु भगिनि.
भगिनि एकः प्रश्नः अस्ति, यदि भवती उक्तवती पाहि ब्रूहि शक्नोहि इति अस्ति, भवती एव प्रेषितवती, किमर्थं कश्चन धातुभ्यां धातोः परिवर्तनम् अस्ति लोट् लकारे, परन्तु कश्चन धातु
अत्र व्याकरणे केषुचित् धातुषु परिवर्तनं भवति. मध्यमपुरुष लोट्लकार एकवचनरूपे तत्र केषुचित् धातुषु परिवर्तनं भवति. साधारणतया पठ् धातुः अस्ति चेत् पठ भवति, परन्तु शक् धातोः रूपं शक्नुहि, दा धातोः रूपं देहि इति भवति. सूत्रम् अस्ति एव, परन्तु व्याकरणवर्गे वयं पठिष्यामः, अहं न स्मरामि. अस्तु, अनन्तरम् अत्र अद्य वयम् इदानीं पर्यन्तं वयम् एतेषां पदानां विषये किञ्चित् चिन्तनं कृतवन्तः. अत्र 970162 तत्र दूरवाणीसङ्ख्या अस्ति, कस्याः दूरवाणी अत्र कृपया नाम उच्यताम्?
महोदय हरि ओं, महोदय अहं भानुचैतन्य अस्मि, क्षम्यताम् इदानीं किं
स्वागतं महोदय
आगतम्.
स्वागतम्. अस्तु, अधुना वयं किञ्चित् इतोपि एतेषां पदानां विषये किञ्चित् इतोपि ज्ञास्यामः. तदर्थं सर्वे अत्र प्रथमं करपत्रं पुरतः स्थापयन्तु. तत्र इति इत्यस्मिन् विषये तत्र सम्भाषणं दत्तमस्ति. अत्र तस्य नाम अस्ति अस्मिन् सम्भाषणे रविः नाम्ना एकः पुरुषः अस्ति, सः एकवारं तस्य अग्रजायाः गृहं गतवान्. तत्र गृहं गत्वा तयोर्मध्ये तत्र सम्भाषणम् अभवत्, तत्र किम् अभवत् इति वयम् एकवारं पश्येम. अत्र गीताञ्जलि भगिनी अपि च भानुचैतन्यमहोदय सम्भाषणं कुर्वन्तु. अत्र प्रथमं करपत्रं क्षम्यताम् इति
महोदय किं करपत्रं पुरतः स्यात् इदानीं?
प्रथमं करपत्रम् अत्र क्षम्यताम् इति नाम्ना एकं करपत्रं प्रेषितवती. तस्मिन् रविः अपि च अग्रजयो योः मध्ये सम्भाषणम्.
अहं शृणोमि, तत् डौन्लोड् नास्ति मम पार्श्वे.
अस्तु, चिन्ता मास्तु. नो चेत् अत्र गीताञ्जलि भगिनी अपि च अत्र के सतीश् महोदय भवान् करोतु. अत्र रविः सतीश् महोदय अग्रज गीताञ्जलि भगिनी.
अस्तु, ओहो भवान् वा, आगच्छतु आगच्छतु.
रवि, आम् अहम् एव, मां कः इति चिन्तितवती भवती?
भवन्तः एक महामार्जरः इति चिन्तवती. निःशब्दं
चिन्तितवती भगिनि, भगिनि चिन्तितवती
इति चिन्तितवती. निःशब्दम् अस्मात् भवान् आगतवान् खलु?
सत्यं मा वदतु भवती, मां महाचोरः इति, अपरिचितः दृष्टः इति चिन्तितवती ननु?
नैव, भवन्तः महाव्याघ्रः इति चिन्तितवती.
भो, तदर्थं कोपः मास्तु, अहमपि विनोदं कृतवान्. भवतु सद्यः मां भवत्याः प्रिया अनुजः इति चिन्तयतु.
एवं, विनोदशीलः इत्येव मम गृहे भवान् बहु प्रियः अभवत् परं भवतः अहङ्कारः गर्वः
अग्रजे अद्य भवत्याः किम् अभवत् इति पदे पदे कुपिता भवती खलु
सत्यं भो अग्रज इति आवृत्तः इति वा भवतः प्रीतिः अस्ति वा एकं पत्रं लिखितवान् किम् अन्ततो गत्वा एकां दूरवाणीं
क्षम्यतां क्षम्यतां पादयः पतामि आवृतः कदा आगच्छति भवती एव मां रक्षतु भवतीं शरणं गच्छामि
उत्तमम् इत्युक्ते अत्र भवन्तः अवगतवन्तः एव परन्तु किञ्चित् व्याकरण अंशान् परिशीलयामः अधुना सर्वे मिलित्वा अत्र गीताञ्जलि भगिनी भवती वदतु अत्र प्रथमं वाक्यमस्ति तत्र आगच्छतु इति पदं दत्तमस्ति लकारः कः
लोट् लकारः प्रथमपुरुष एकवचन
उत्तमम् इत्युक्ते भवान् आगच्छतु तत्र वाक्यमस्ति भवान् आगच्छतु अनन्तरं द्वितीये वाक्ये अहमेव इति दत्तमस्ति तत्र तत्र सन्धिः अस्ति वा न वा
योग एव मी ओन्लि
न न भगिनि अत्र सन्धिः अस्ति वा नास्ति वा अहमेव
सन्धिः न गुणसन्धि एव नो समस्तपदं अहमेव
उत्तमं भगिनि वंशीसिद्धा भगिनी उक्तवती अत्र सन्धिः नास्ति केवलं वर्णमेलनम् अहं योगः एव अस्ति परन्तु तत्र सन्धिः एव नास्ति केवलं वर्णमेलनं भूत्वा तथा लिखितमस्ति वर्णमेलनम् इत्युक्ते इत्युक्ते वयम् अहं योगः एव इति लिखामश्चेत् कथं लिखामः अहम् इत्यस्मिन् पदस्य अन्ते मकारं लिखामः किमर्थं चेत् परवर्णः एकारः अस्ति परवर्णः स्वरः अस्ति इति कृत्वा तत्र मकारं लिखामः मकारम् अपि च एकारं योजनेन तस्य योजनेन केवलं मे भवति तावदेव केवलं वर्णमेलनमेव न तु सन्धिः
अथवा
भेदः अस्ति भगिनि अत्र इत्युक्ते समस्तपदम् इत्युक्ते समासः अस्ति चेदेव समस्तपदम् इति वदामः समासः नास्ति चेत् व्यस्तपदं समस्तपदं व्यस्तपदम् इत्युक्ते पृथक् पृथक् रीत्या लिखामश्चेत् अत्र समस्तः समासम् अकृत्वा लिखामश्चेत् व्यस्तपदम् इति वदामः परन्तु अत्र केवलं वर्णमेलनम् अस्ति अनन्तरं
भगिनि अत्र व्यञ्जनम् अपि स्वर विसर्ग अथवा अनुस्वार वर्जयित्वा अनुसार या पञ्चम वर्गस्य पञ्चमवर्णं वर्जयित्वा सर्वे वर्णमेलने एव भवति न विसर्ग सारि व्यञ्जनापि स्वर सर्वदा वर्णमेलने एव भवति सन्धि न भवति न
इत्युक्ते अत्र परवर्णः स्वरवर्णः अस्ति चेत् साधारणतया अहमेव तथा वदामश्चेत् तत्र केवलं वर्णमेलनम् एव भवति
परन्तु विसर्ग अथवा अनुस्वार अपि चेत् तदा सन्धिः भवति
विसर्गः अस्ति चेत् विसर्गसन्धिः भवति नो चेत्
अन्यत् कोऽपि व्यञ्जनवर्णः अस्ति चेत् हल् वर्णः अस्ति चेत् किमपि सन्धिः न भवति हल् वर्णः अपि स्वर अचुवर्ण हल् वर्णः अपि अचुवर्ण सन्धिः न भवति कदापि इति करेक्ट् न
अस्तु तदेव इत्युक्ते अत्र अत्र अनुस्वारः अस्ति चेत् अनुस्वार अनुस्वारस्य स्थाने परसवर्णः आदेशः भवति यथा शङ्करः तथा, परन्तु अत्र विसर्गः अस्ति चेत् विसर्गः विसर्गस्य स्थाने तत्र पञ्चकार्याणि भवन्ति तथा नियमाः सन्ति, परन्तु अत्र केवलं वर्णमेलनम् एव. अनन्तरम् अत्र गीताञ्जली भगिनी भवती वदतु, महामार्जारः इति उक्तमस्ति, अर्थः कः? वदतु महोदय.
मार्जारः इत्युक्ते बिडालः.
मार्जारः इत्युक्ते बिडालः, परन्तु महामार्जारः इत्युक्ते
व्याघ्रः,
व्याघ
सिंहः,
व्याघ्रः इति वक्तुं शक्नुमः. तथा एव अस्तु. अनन्तरम् अत्र भवन्तं दृष्ट्वा एकः महामार्जारः इति अहं चिन्तितवती इति सः उक्तवान्. अत्र निःशब्दः इति पदमस्ति, अत्रापि विसर्ग विकल्पेन तिष्ठति. अत्र अहं पूर्वम् उक्तवती वाशरी इति सूत्रेण यदि परवर्णः शर्वर्णः अस्ति चेत् विकल्पेन अत्र विसर्गः तिष्ठति, नो चेत् विसर्गस्य स्थाने प्रथमतया सकारः अनन्तरं शकारः आगन्तुं शक्नोति, परन्तु अत्र केवलं विसर्गं योजयित्वा लिखितमस्ति. अकस्मात् इति पदमस्ति, इत्युक्ते भवती किम् अवगतवती अकस्मात्?
अकस्मात् इत्युक्ते सहसा इत्युक्ते सडन्लि.
सडन्लि उत्तमम्. अहम् अन्यं पदं दृष्टवती, एकम् अन्यं पदं काकतालीयवत् श्रुतवती वा? काकतालीयवत् इत्युक्ते अत्र अकस्मात् इति अर्थः. अनन्तरं काकतालीयवत् अनन्तरम् अत्र माम् असत्यं मा वदतु, भवती मां महाचोरः अपरिचितः दुष्टः इति चिन्तितवती. ननु इति वयं जानीमः एव. अत्र नैव इति पदं दत्तमस्ति, महोदय वदतु, सतीश् महोदय, नैव अत्र सन्धिः कः? अत्र सन्धेः नाम किं? नाम किम्? नाम महोदय, अत्र गीताञ्जलि भगिनी वदतु.
वृद्धिसन्धिः.
सन्धेः भगिनी, सन्धेः सूत्रं किं किं विधिसूत्रं किं?
वृद्धिरादैचि.
न भगिनी, वृद्धिरादैचि इति उत्तमम् इत्युक्ते उत्तमम् इत्युक्ते संज्ञासूत्रं वृद्धिरादैच्, परन्तु विधिसूत्रं वृद्धिरेचि इति भवति. अनन्तरं प्रियानुजः इति पदमस्ति, प्रियानुजः तत्र सन्धेः नाम किम्?
सवर्णदीर्घसन्धिः.
उत्तमम्. अत्र अहमपि विनोदं कृतवान्, अत्र अहमपि विनोदं कृतवान् अस्मिन् वाक्ये कर्मपदं किम्? कर्मपदम् अहमपि विनोदं कृतवान्. विनोदम् इत्युक्ते अत्र अस्मिन् वाक्ये कर्मपदं विनोदं, परन्तु प्रथमाविभक्त्यन्तरूपं विनोदः. किमर्थं चेत् तत्र क्रूधातुः कर्मपदं स्वीकरोति, अतः विनोदं कृतवान् इति लिखितमस्ति. अपि च अत्र सद्यः इत्युक्ते भवती किम् अवगतवती, वदतु.
अहं न जानामि
सद्यः. अत्र वंशसुधा भगिनी वदतु सद्यः.
सद्य इत्युक्ते इमीडियट् इन्स्टेण्ट्लि भगिनी.
उत्तमं. सद्यः
सद्यः
सद्यः इत्यस्मिन् विषये अत्र शोभा भगिनी भवती वक्तुं शक्नोति वा अन्यानि पदानि सद्यः इत्यस्मिन् विषये?
अधुना
अधुना अपि च
इदानीं
अपि च
भवती पूर्वस्मिन् कक्षा बहूनि पदानि
तावत्
अत्र साम्प्रतं
साम्प्रतं
अपि च सम्प्रति
साम्प्रतं
सम्प्रति
सम्प्रति साम्प्रतं
कोऽस्मिन् साम्प्रतं लोके
अधुना इदानीम् उत्तमम् अधुना इति पदात् वयं चर्चितवन्तः अधुना इति पदात् आधुनिक इति तद्धितान्तरूपम् आगच्छति अनन्तरम् अत्र किं दत्तमस्ति इत्येव अत्र सन्धेः नाम किं भगिनि गीताञ्जलि भगिनी वदतु इत्येव
इति योगः योगः एव यण् सन्धि इको यणचि सूत्रेण बलेन य आदेशः अस्ति
उत्तमम् उत्तमम् अनन्तरम् अत्र अग्रिमं वाक्यमस्ति एवं विनोदशीलः इत्येवं मम गृहे भवान् बहुप्रियः अभवत् अत्र एवम् इति पदमस्ति भवन्तः जानन्ति चेत् एकम् अन्यं पदं वदन्तु एवम्
अथवा
न एवम् इत्युक्ते न एवम् इत्युक्ते अर्थः कः
अतः
भगिनि अत्र एवम् इत्यस्य अर्थः कः
एवं दस्
अन्यं पदम् एवम् इत्युक्ते किं वदामः रघुपति आचार्यमहोदय वदतु एवम् इत्यस्मिन् स्थले अन्यं पदं योजयित्वा वक्तुम् इच्छामश्चेत् शोभा भगिनी वक्तुं शक्नोति वा एवं विनोदशीलः वदतु भगिनि
एवं विनोदशीलः
एवं लैक् दिस् एवं लैक् दिस् एवं न स्मरामि
तादृशीदृशं
अत्र वदतु भगिनि
एतादृशी
उत्तमम् उत्तमम् इत्युक्ते एतादृशरीत्या इति वक्तुं शक्नुमः अथवा इत्थम् इति पदमपि अस्ति इत्थम् एतादृशरीत्या इति अपि वक्तुं शक्नुमः अनन्तरम् अत्र अग्रजे इति पदमस्ति रूपं किं भगिनि वदतु
किं पदं भगिनि
अग्रजे
अग्रजे अग्रजे इत्युक्ते
सतीश् महोदय वदतु
अग्रजे सम्बोधनार्थं
सम्बोधनम्
सम्बोधनार्थम् अस्तु अग्रजा स्त्रीलिङ्गपदम् इता सीते यत अग्रजा अग्रजे सम्बोधनपदम् एकः
सम्बोधनपदम् अनन्तरम् अत्र कुपिता भवति भवति पदे पदे कुपिता भवति खलु अत्र कुपिता इति पदं कुपिता इति पदं क्षान्तरूपं क्षान्तरूपमस्ति कोऽपि वक्तुं शक्नोति वा अत्र लट्लकाररूपं किं भवति कुपिता इति क्षान्तरूपं कोऽपि ऊहां कर्तुं शक्नोति वा भानुचैतन्यमहोदय वक्तुं शक्नोति वा अत्र कुपिता इति कुप् धातुः अस्ति कुप्यति इति कुप्यति इति लट्लकाररूपम् अपि च पदे पदे इति अव्ययं रूपमस्ति अनन्तरम् अत्र गीताञ्जलि भगिनी वदतु औतः इत्युक्ते कः
आ अहं न जानामि,
सिस्टर् इन् ला.
सतीश् महोदय वदतु.
या सिस्टर् इन् ला, भगिनी भगिनी सिस्टर् इन् ला.
न तथा न, तथा न महोदय. आवुत्तः, आवुत्तः इत्युक्ते कः वदति? शोभा भगिनी वदतु.
न जानामि भगिनि.
ब्रदर् इन् ला, ब्रदर् इन् ला
इत्युक्ते आङ्ग्लभाषा, संस्कृतभाषायां किं वदामः? अत्र किं वदामः इत्युक्ते अग्रजायाः पतिः, अग्रजायाः पतिः आवुत्तः. आवुत्तः, उत्तमम्. अनन्तरम् अन्तिमं पदमस्ति क्षम्यताम्. भवन्तः सर्वे अवगतवन्तः एव एतत् सम्भाषणं, परन्तु किञ्चित् व्याकरणविषयान् परिशीलयामः तदर्थमेव. क्षम्यताम् इति पदं दत्तमस्ति. तस्य रूपं किं, कः वदति? क्षम्यताम्. भानुचैतन्यमहोदय प्रयत्नं करोतु.
अव्ययं वा महोदय?
न
न न न न, क्रियापदं, क्रियापदम्. वयं सर्वे वारं वारं शृणुमः एतत् पदं, बहु साधारणं पदम्. रघुपति आचार्य महोदय, भवान् प्रयत्नं करोतु. कः वदति? वंशसुधा भगिनी.
लोट्लकाररूपम् अस्ति भगिनि.
पूर्णतया वक्तव्यं.
लोट्लकारे प्रथमभूष द्विवचनमस्ति. भवताम् इति क्षम्यताम् अहं चिन्तयामि. अहं न,
लोट्लकारे प्रथमपुरुष एकवचनमस्ति वा? आत्मनेपदी
भवतु, भवतां, भवन्तु, क्षम्यताम् इति द्विवचने.
अत्र अत्र शोभा भगिनी, अत्र भवती अन्तिमम् अन्तिमं वदतु. अत्र किम् अभवत् अत्र? क्षम्यताम्,
क्षम्यतां यदि वन्दतां पदस्य रूपे अस्ति चेत् आत्मनेपदी लोट्लकारे प्रथमपुरुषे एकवचने.
परन्तु सर्वे शृण्वन्तु, अत्र अहं चिन्तयामि, अत्र क्षमते यथा भवती उक्तवती आत्मनेपदीरूपं क्षमते अस्ति, परन्तु क्षम्यताम् इति वदामश्चेत् तत्र कर्मणि लोट्, कर्मणि प्रयोगे लोट् रूपं भवति.
किं वचनं?
एकवचनमेव, एकवचनं.
भवत्या क्षम्यताम् अस्ति वा भगिनि?
क्षम्यताम्
कर्मणि कर्मणि लोट् चेत्
कर्मणि प्रयोगः लोट्
लोट्लकारे
अपि लोट्लकारे अपि च आत्मनेपदीरूपम्.
अन्य उदाहरण प्रेषयतु भगिनि.
प्रेषयामि, प्रेषयामि. अनन्तरम् अत्र पादयोः, भगिनी वदतु, पादयोः रूपं किम्?
पादयोः द्विवचन षष्ठी विभक्ति सप्तमी विभक्ति पादयोः.
परन्तु अस्मिन् वाक्ये,
अस्मिन् वाक्ये पादयोः
सप्तमी
सप्तमी
सप्तमी सप्तमी पादयोः पादयोः पतामि. सप्तमी वदतु शोभा भगिनी.
सप्तमी द्विवचने पादयोः पतामि,
पादयोः पतामि. भवती एव मां रक्षतु, मां रक्षतु इत्युक्ते अत्र भवती रक्षतु यदि मध्यमपुरुषे वदामश्चेत् त्वं रक्ष इति भवति. अनन्तरं भवतीं शरणं गच्छामि. अत्र अत्रापि विशेषप्रयोगः अस्ति. अत्र शरणं गच्छामि, गच्छामि इति पदं किमर्थम् इति अत्र विशेषप्रयोगः. भवतीं शरणं गच्छामि इति
बुद्धं शरणं गच्छामि.
हा तथा एव बुद्धं शरणं गच्छामि, धर्मं शरणं गच्छामि, अपि च सङ्घं शरणं गच्छामि. अत्र विशेषप्रयोगः अस्ति. अनन्तरं सम्यक् चिन्तनं सम्यक् अस्ति. अधुना वयं द्वितीयं करपत्रं पश्यामः. अत्र अधुना वंशीसुधा भगिनी अपि च शोभा भगिनी वार्षिकोत्सववर्णनं तस्मिन् सम्भाषणे पतिपत्नियोः मध्ये सम्भाषणमस्ति नैव अपि
वार्षिकोत्सवं
वार्षिकोत्सववर्णनं वार्षिकोत्सववर्णनं
एकनिमिषं भगिनि. अपि नैव
अपि नैव तस्य शीर्षिका अस्ति वार्षिकोत्सववर्णनं, परन्तु अपि नैव.
आं भगिनि, अहं वदामि. पत्नी, ह्यः वयं विद्यालयस्य वार्षिकोत्सवं गतवत्यः.
पतिः, कार्यक्रमं कथम् आसीत्?
सम्यक् आसीत्, परं किञ्चित् दीर्घः कार्यक्रमः आसीत्.
के के कार्यक्रमाः आसन्?
नूतनानां कार्यक्रमाणाम् आयोजनं कृतवन्तः. राजस्थानी गीतस्य नृत्यं बालिकानाम् आसीत्, बालकानां हिन्दीगीतस्य नृत्यम् आसीत्.
केवलं नृत्यम् आसीत् किम्?
नैव, शिक्षणां शिक्षकाणां संस्कृतनाटकम् आसीत्. ते सम्यक् न कृतवन्तः. जनाः अपि अर्थम् अज्ञात्वा कोलाहलं कृतवन्तः.
बालकानां नाटकं न आसीत् वा?
नैव, आरम्भे एव युवतीनां स्वागतनृत्यम् आसीत्. अपरः कार्यक्रमः अतिविशिष्टः.
कः कार्यक्रमः?
पञ्चभूतानां मेलनम् इति प्रथमं भूमिः, आकाशः, पवनः, पावकः, जलम् एतेषां पृथक् नृत्यम्, अनन्तरं सर्वेषां मिलित्वा नृत्यं, मध्ये मध्ये सम्भाषणम् इत्युक्ते नृत्यरूपकम् आसीत्.
कार्यक्रमस्तु सम्यक् आसीत्, तथैव अलङ्कारः अपि आसन् किम्?
दीपानाम् अलङ्कारः, ध्वनिवर्धकानां, पुष्पाणां, फलानाम् इत्यादीनां बहुविधाः अलङ्काराः आसन्.
उत्तमम्. इत्युक्ते अधुना एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. अधुना प्रथमे वाक्ये वयं गतवत्यः इति अस्ति, दृष्टवन्तः वा? वयं पूर्वमेव चर्चितवन्तः तावत् प्रत्ययान्तरूपाणां विषये पुरुषभेदः नास्ति. तदर्थं तदर्थमेव वयं गतवत्यः. वंशीसुधा भगिनी, भवती वदतु, वयं कुत्र गतवत्यः?
विद्यालयस्य वार्षिकोत्सवः कार्यक्रमे गतवत्यः.
अत्र किं वक्तव्यम्? अत्र पदमस्ति वार्षिकोत्सवः.
वार्षिकोत्सवः कार्यक्रमे,
अत्र वार्षिकोत्सवः अस्ति इति वदामः. परन्तु कुत्र गतवत्यः, यत्र कुत्रापि गन्तव्यस्थानमस्ति चेत् तत्र कर्मपदं योजयामः. अस्मिन् वाक्ये वार्षिकोत्सवम् इति कर्मपदम्. अत्र प्रथमाविभक्त्यन्तरूपम् उत्सवः, अत्र समस्तपदमस्ति उत्सवः, परन्तु वयम् उत्सवं द्रष्टुं गतवत्यः. अनन्तरम् अत्र इत्युक्ते अत्र पत्नी वयं गतवत्यः, सा किमर्थम् उक्तवती तथा वदतु. किमर्थम् उक्तवती सा
पत्नी केचन सख्यां सह गतवती, अहं चिन्तयामि वयम् इति उक्तवती.
इत्युक्ते पत्नी वदति सा तस्याः सख्यः सह गतवती, सखीभिः, क्षम्यतां, सा तस्याः सखीभिः, सखीभिः सह गतवती. अनन्तरम् अनन्तरम् अत्र वाक्यमस्ति दीर्घः कार्यक्रमः अस्ति. अत्र कार्यक्रमः कीदृशः?
दीर्घः अस्ति,
दीर्घः कार्यक्रमः. अग्रिमे वाक्ये अत्र कार्यक्रमा आसन् इति दत्तमस्ति, तत्र किमर्थं विसर्गः नास्ति?
के के कार्यक्रमा आसन्?
स्वरः अस्ति, आकारः अस्ति.
वदतु महोदय, कारणं किम्?
कार्यक्रम पर स्वर अस्ति, आकार अस्ति, अतः लोपः भवति. परन्तु
अहं वदामि अत्र
दीर्घ आकारस्य यदा भवति,
इत्युक्ते अत्र वाक्यं कथं लेखनीयम् इत्युक्ते कार्यक्रमाः आसन् इति लेखनीयं, परन्तु विसर्गः नास्ति चेदपि सम्यक् एव. किमर्थं विसर्गः नास्ति चेदपि सम्यक् एव? किमर्थम् इत्युक्ते तत्र सूत्रमस्ति, एकं सूत्रं, तृतीयं भाटसूत्रं वदामः, आतः परस्य विसर्जनीयस्य लोपः अखरि इति तृतीयं भाटसूत्रं. तेन सूत्रेण किं भवति इत्युक्ते अत्र विसर्गस्य लोपः भवति.
अहं चिन्तितवती यदा पठितवती मुद्रादोषः अस्ति इति अहं चिन्तितवती.
न इत्युक्ते अत्र अनेन सूत्रेण विसर्गः लुप्यते. अनन्तरं भवती एव वदतु नूतनानां कार्यक्रमाणाम् आयोजनम्, अत्र विभक्तिः का, वचनं किम्?
षष्टिविभक्ति बहुवचनरूपमस्ति. नूतनानां कार्यक्रमाणाम् आयोजनं कृतवन्तः. आयोजनं कर्मपदमस्ति, कृतवन्तः इति भूतकाले अस्ति.
उत्तमम्. अत्र आयोजनम् इति पदमपि लुडन्तपदम्. अहं चिन्तयामि. अनन्तरम् अत्र नूतनानां कार्यक्रमाणां, कार्यक्रमाणाम् अत्र णत्वं किमर्थम्?
णत्वं अट्कु मकारः अस्ति इति अतः बाधा नास्ति.
कुत्र रेफः अस्ति?
रेफः नकारः अथवा
न अत्र अत्र पश्यतु, कार्यक्रमाणाम् इति पदमस्ति, अत्र रेफः द्विवारम् अस्ति.
आं भगिनि,
केन प्रभावेण?
ओ ओके, द्वयोः प्रभावेन भवति.
द्वितीयस्य द्वितीयस्य
द्वितीयस्य द्वितीयरेफस्य कारणेन अत्र क्रमः.
ओ, प्रथमरेफः कार्यम् अपि कार्यं करोति न भगिनि?
न अत्र अस्मिन् पदे अत्र पदमस्ति कार्यक्रमः.
आम्
कार्यक्रमः अस्ति, क्रमः क्रमः इत्यस्मिन् अत्र रेफः अस्ति, क्रमः क्रमाणाम् इत्युक्ते अत्र णत्वस्य निमित्तं केवलं द्वितीयरेफः एव.
ओ ओह, आम्
अत्र
सर्वत्र अहं एकमेव रेफः अस्ति अथवा णत्वं भवति इति पश्यामि. इदानीं द्वे रेफः अस्ति इति प्रथमं पश्यामि भगिनि.
रेफद्वयम् अस्ति अत्र. अनन्तरं राजस्थानीगीतस्य नृत्यं बालिकानाम् आसीत्, बालकानां हिन्दीगीतस्य नृत्यम् आसीत्. अपि च अत्र शिक्षकाणां इति पदमस्ति, तत्र किमर्थं रेफः णत्वं
शिक्षकाणां
शकारः
अस्ति भगिनि, शकारः का शकारः मूर्धन्यशकारः अस्ति,
सम्यक् वदतु
क्षा इति संयुक्ताक्षर अस्ति, का योगः मूर्धन्यशकारः, शकारः इति शकारः नकारः मध्ये कवर्गीयव्यञ्जन अस्ति, बाधा न भवति, अतः नत्वं भवति, नकारः नकारः भवति, दशाभ्यां नो नः समानपदे
इत्युक्ते अत्र किम् अभवत् इत्युक्ते शिक्षकाणाम् इत्यस्मिन् पदे शिक्षकः इति प्रथमाविभक्त्यन्तरूपं, परन्तु अत्र क्ष इति पदं यथा भवती उक्तवती क्ष इति संयुक्ताक्षरं, क्ष इत्यस्मिन् पदे ककारः अपि च मूर्धन्यषकारः अपि अस्ति, इत्युक्ते अस्मिन् पदे निमित्तमस्ति मूर्धन्यषकारः, मूर्धन्यषकारः निमित्तम्, अपि च अत्र बाधकवर्णाः अपि न सन्ति, तदर्थं शिक्षकाणाम् इति अभवत्. अनन्तरं
मूर्धन्यषकारः इत्युक्ते कृष्णषकारः अस्ति वा,
कृष्णषकारः अत्र वार्षिक इति पदमस्ति, अत्र मूर्धन्यषकारः अस्ति, अपि च उत्सव इत्यस्मिन् पदे दन्त्यसकारः अस्ति, अपि च मूर्धन्यषकारः दन्त्यसकारः, अपि च किमस्ति तालव्यषकारः, तालव्यषकारः कुत्र अस्ति अत्र अग्रिमं पश्य गीताञ्जलि भगिनी वदतु
भगिनी, द्वितीयरेफ अस्ति कार्यक्रमाणां पदे, एकं रेफ यदि एकं रेफ अस्ति तदनन्तरं न अपि भवति वा,
न एकस्मिन् एव पदे अत्र रेफद्वयम् अस्ति चेदपि तत्र णत्वस्य निमित्तं केवलं द्वितीयरेफः एव, द्वितीयरेफात् कारणात् एव तत्र णत्वम् अभवत्, न तु प्रथमरेफस्य
द्वितीयपदं निमित्तं णत्वम् अस्ति,
णत्वस्य निमित्तं द्वितीयरेफः एव.
अस्तु अस्तु भगिनि,
परन्तु भगिनी कार्याणामपि वक्तुं शक्नुमः किम्?
कार्याणि कार्याणां, कार्याणि इति पदं नपुंसकलिङ्गपदं, षष्टि बहुवचनं कार्याणां.
सो द रूल् इस् जस्ट् इट् फालोस् द सेकेण्ड् ओन्लि, वाट् एवर् द फस्ट् विल् बि.
अनन्तरम् अत्र इतोपि किम् अभवत् अत्र वंशीसुधा भगिनी वदतु, नैव इति पदं दत्तमस्ति, नैव इत्युक्ते किम् अवगतवती,
न एव
अर्थः कः, आङ्ग्लभाषायाम् अनुवादं कृत्वा वदतु अधुना, नैव
एव इत्युक्ते ओन्लि, नाट् ओन्लि,
नैव इति पदम् अस्मिन् सम्भाषणे बहुवारम् आगतम्, अत्र नैव इति इत्युक्ते भवती किम् अवगतवती
इति अहं नैव आरम्भे एव युवतीनां स्वागतनृत्यम् आसीत्, अपरः कार्यक्रमः अतिविष्टितः, नैव नाट् ओन्लि आरम्भे एव इति अहं चिन्तयामि, not only this, others also are there,
parantu gangitanjali bhagini vadatu,
not even
kim vadamah ichukta atra asmin sambhashane naiva iti dattam asti che tatra no iti vadamah, no emphatic, with full force, नो नैव केवलं नृत्यम् आसीत् किं तत्र पतिः पृष्टवान् केवलं नृत्यम् आसीत् किं तथा पत्नी वदति नैव बालकानां नाटकं न आसीत् वा नैव आरम्भे एव युवतीनां कार्यक्रमः आसीत् तथा नैव नैव इति दत्तमस्ति अत्र शिक्षकाणाम् इति अभवत् अनन्तरम् अत्र इतोपि किमस्ति अत्र वयं जानीमः एव पञ्चभूतानां मेलनम् इति अस्ति पञ्चभूतानि कानि भगिनि वदतु
आकाशः वायुः जलम् अग्निः जलं भूमिः
अत्र एव दत्तमस्ति भूमिः 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 इत्यस्मिन् विषये अन्यानि पदानि वदतु
पृथ्वी पृथ्वी धृति धृति
धृति न भिन्नपदं धरणि
धरणि धरणि
भूमि भूमि
भू अपि च भू पृथिवी अथवा मही इति वदामः अनन्तरम् आकाशः अपि च पवनः इति पदं दत्तमस्ति पवनः इत्यस्मिन् विषये अन्यानि पदानि वदतु
पवनः
मरुत्
मरुत् मरुत्
मरुत् अनिलः उत्तमम्
अनिलः
अनन्तरम् अत्र भानुचैतन्य महोदय भवान् वदतु पावकः इत्युक्ते कः पावकः
महोदय पुनरेकवारं तत् पावकः
पावकः
पावकः तु अपि अग्निः एव मातरिश्वान्
पावकः इत्युक्ते अग्निः अनन्तरं जलं जलम् इत्यस्य विषये अन्यानि पदानि वदतु वारि 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 तोयं नीर
नीर्
नीर् नीर् नीरज नीर्
नीरं नीरम् एव अत्र तोयं तोयम् अस्ति अपि च यथा रघुपत्याचार्यमहोदयः उक्तवान् आपः आपः इति पदमस्ति परन्तु आपः इति पदं सर्वदा बहुवचनान्तं सर्वदा बहुवचनान्तं तस्य एकवचनरूपं द्विवचनरूपं नास्ति अनन्तरम् अत्र पृथक् नृत्यम् इति दत्तमस्ति पृथक् इत्युक्ते
भिन्न
भिन्न
भिन्न वयं पूर्वमेव पठितवन्तः पृथक् इत्यस्य भावः एव पार्थक्यम् अत्र पार्थक्यम् इत्युक्ते आङ्ग्लभाषायां किं वदामः शोभा भगिनी वदतु
वैविध्यं पार्थक्यं
वेरैटि
वेरैटि
अत्र किं वदामः इत्युक्ते डिफ्रेन्स्
डिफ्रेन्स्
इत्युक्ते तयोर्मध्ये भेदः कः इति साधारणतया वदामः परन्तु तयोर्मध्ये पार्थक्यं किम् इति अपि वक्तुं शक्नुमः अत्र तथा एव पृथक् पृथक् इत्यस्य भावः पार्थक्यम् इति दत्तमस्ति अनन्तरम् अत्र एकः अज्ञात्वा इति दत्तमस्ति जनाः कोलाहलं कृतवन्तः किमर्थं हंसुसुधा भगिनी वदतु
कुत्र स्म भगिनि
शिक्षकाणां नाटकं संस्कृतनाटकम् आसीत् परन्तु ते सम्यक् न कृतवन्तः संस्कृतनाटकम् अस्ति परन्तु ते सम्यक् न कृतवन्तः
अर्थम् अज्ञात्वा कोलाहलं सम्यक् न जनाः सम्यक् न अवगच्छन्ति इति कारणेन इति अतः कोलाहलं कृतवन्तः
उत्तमम् इत्युक्ते ये जनाः तत्र आगतवन्तः ते न अवगतवन्तः तदर्थम् इत्युक्ते नाटकस्य अर्थः कः इति न ज्ञातवन्तः, तदर्थं ते कोलाहलं कृतवन्तः. अनन्तरम् अत्र अन्तिमे अन्तिमं वाक्यमस्ति, अन्तिमं वाक्यम् अत्र अन्तिमं वाक्यं पुनः एकवारं वदतु भगिनि, वंशीसुधा भगिनी.
दीपानां पत्नी वदति तदेव महाभवमग्नि. दीपानाम् अलङ्कारः, दीपानाम् अलङ्कारः ध्वनिवर्धकानां पुष्पाणां फलानाम् इत्यादीनां बहुविधाः अलङ्काराः आसन्.
आसन् अत्र बहूनि बहूनि पदानि, षष्टिबहुवचनान्तानि सन्ति. वदतु.
दीपानां षष्टि बहुवचने अस्ति, ध्वनिवर्धकानाम् अपि षष्टि बहुवचने, पुष्पाणां फलानाम् इत्यादीनाम् अपि अहम् इति आदीनाम् इत्यादीनाम् अपि अस्ति. तावदेव महोदय.
अत्र इत्यादीनां तत्र प्रथमविभक्त्यन्तरूपं किम्
इति आदिः आदि आदि इति योगः आदि
इत्युक्ते अत्र इत्यादिः पुंलिङ्गे वदामः
इत्यादिः इत्यादीनां
इत्यादीनाम् उत्तमम्. अत्र अस्मिन् सम्भाषणे इतोपि ज्ञातव्यं वा प्रश्नाः सन्ति वा यस्य कस्यापि? सम्यक्
सम्यक् अस्ति भगिनि
सम्भाषण, अत्र प्रश्नाः न सन्ति. उत्तमम्. अधुना सार्ध द्वादशवादनम् एकादशवादनम् अभवत्. अधुना अत्र कथा अस्ति, अपरिवर्तनीयः विधिनियमः, तां कथां पठामः वा नो चेत् अग्रिमे सप्ताहे पठामः वा, भवन्तः किं चिन्तयन्ति?
किञ्चित् पठामः,
एकवारं पठामः,
एकवारं पठामः. महोदय भवानेव पठतु अत्र प्रथमपरिच्छेदं पठतु.
क्षम्यतां महोदय, एकः प्रश्नः, इदम् अदस् द्विति द्वे पदे भेदः किं भगिनि? इदम् अदस् समान अर्थः एव अस्ति न भगिनि?
अर्थः समानः परन्तु प्रातिपदिकम् इदम् इदम् इदं प्रातिपदिकं स्वीकृत्य अत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति.
आम् आं तत् अहं पश्यति दृष्टवती. अदस् अपि अस्ति इति अहं चिन्तयामि, समान एव अर्थः अस्ति, द्वे पदे किमर्थम् अस्ति इति अहं चिन्तितवती.
आं भगिनि, तथा इत्युक्ते भाषायां बहूनि पदानि सन्ति.
आम्
अत्र बहूनि पदानि इत्युक्ते अत्र ये तद् प्रातिपदिकं स्वीकृत्य एषः एषा एतत् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति, तथा एव इदम् इदं पदं स्वीकृत्य अन्यानि पदानि.
भाषा बहु विशिष्टमस्ति.
तदेव भाषायाः वैशिष्ट्यं, बहूनि पदानि सन्ति, इतोपि बहूनि पदानि वयं निर्मातुं शक्नुमः. इत्युक्ते तत्र एकः श्लोकः अपि अस्ति अदस् योजयित्वा, पूर्णमदः पूर्णमिदं पूर्णमदः पूर्णमदः इत्युक्ते अत्र अदः पूर्णमिदं, तत्र अधः इति पदं स्वीकृतमस्ति तस्मिन् श्लोके, इदमपि अस्ति पूर्णात् पूर्णमुदच्छते तथा भवति. तथा एव सूर्यस्य विषये अपि एकः श्लोकः अस्ति अधः योजयित्वा, अहं सन्ध्यावन्दनं श्लोकं वा किमपि श्लोकम् अस्ति तत्र, तस्मिन् श्लोके अधः इति योजितमस्ति. अमू अमू इति पदं बहु प्रसिद्धं रूपम्, अमू अदस्
इत्युक्ते किं भगिनि?
अत्र स्त्रीलिङ्गे रूपम् अस्ति भगिनि, द्विवचने अदस् शब्दस्य द्विवचने रूपम् अस्ति.
परन्तु सम्भाषणे अहं न उक्तवती, परन्तु यदि सूत्र यदि पुस्तके सर्वे अपि अस्ति, परन्तु सम्भाषणरीत्या अदस् इति शब्दम् अहं सर्वे अपि न कृतवन्तः न भगिनि?
हा, सरलसंस्कृतं वयं सर्वे सरलसंस्कृतम् एव वदामः, परन्तु सम्भाषणे अपि अस्ति. परन्तु गते सप्ताहे शोभा भगिनी उक्तवती इमाः, इमाः इति पदं योजयित्वा वाक्यं रचितवती. इमाः तत्र सा यद्वाक्यम् उक्तवती तस्मिन् वाक्ये सा द्वितीया विभक्ति स्त्रीलिङ्गबहुवचनरूपं योजितवती. इमाः, तदर्थमेव अहं प्रेषितवती सर्वेषां कृते. एकवारं पुनःस्मरणं भवति इति मत्वा प्रेषितवती. उत्तमम्. अधुना आचार्यमहोदय भवान् पठतु.
आम् महोदय. मूर्खाः शुकाः. कस्मिंश्चित् वने कश्चन साधुः वसति स्म. सः स्वस्य कुटीरे कांश्चन शुकान् पालितवान् आसीत्. सः तेषां रक्षणार्थं तान् पाठितवान् आसीत्. यदा यः कोऽपि दृश्येत तदा भवद्भिः व्याधः आगच्छति, जलं प्रसारयति, किन्तु वयं न गच्छेम इति वक्तव्यम् इति. यः कोऽपि दृष्टः चेदपि ते शुकाः सर्वदा एतानि एव वाक्यानि वदन्ति स्म. एकदा अग्रे पठामि वा?
एतावत्पर्यन्तं वदतु महोदय, किम् अभवत्?
कस्मिंश्चित् वने एकः साधुः आसीत्. सः स्वस्य कुटीरे शुकान् पालितवान् आसीत्. सः तेषां रक्षणार्थं किञ्चित् सम्भाषणम् अपि पाठितवान् आसीत् तेषां कृते. किं करणीयं, किं वक्तव्यं यदा यः कोऽपि दृश्येत तदा भवद्भिः, यदा कोऽपि अत्र आगच्छति चेत् किं वक्तव्यम् इति. एतत् अस्ति आसीत् व्याधः आगच्छति, जालं प्रसारयति, किन्तु वयं न गच्छेम इति वक्तव्यम् इति. व्याधः इति तत् तद्वाक्यं वदनीयम् इति वक्तव्यम् इति वक्तव्यम् इति पाठितवान् आसीत्. शुकान् पाठितवान्, शुकेभ्यः पाठितवान्. ओके, न जानामि. जालं प्रसार इति यः कोऽपि दृष्टः चेदपि ते शुकाः सर्वदा एतानि एव वाक्यानि वदन्ति स्म. ते अतः ते शुका ता ते शुकाः एतदेव वाक्यं वदन्ति स्म. व्याधः आगच्छति, जालं प्रसारयति, किन्तु वयं न गच्छामः इति.
उत्तमम्. इत्युक्ते अत्र कस्मिंश्चित् वने वयं जानीमः एकस्मिन् वने इति, तत्र एकः वा कस्मिन् वा इति वदामः चेत् एकस्मिन् वने इति वदामः. एकः साधुः अस्ति, सः कुटीरे कांश्चन शुकान् पालितवान् आसीत्. पालयति इति पदस्य तवत्वन्तरूपं पालितवान् आसीत्. सः किं कृतवान्? सः शुकानां रक्षणार्थं तान् पाठितवान्. किं पाठितवान्? यदि कोऽपि दृश्येत तदा भवद्भिः किं वक्तव्यं? भवद्भिः वक्तव्यं, कर्मणि प्रयोगः. भवद्भिः वक्तव्यं, किं वक्तव्यं? व्याधः आगच्छति, जालं प्रसारयति, किन्तु वयं न गच्छेम. गच्छेम रूपं किं महोदय?
वयं न गच्छेम इति गच्छेम बहुवचनम् अस्ति, उत्तमपुरुषः अस्ति, गच्छेम गच्छेम लोट् पठेम विधिलिङ्गलकार अस्ति
उत्तमपुरुष विधिलिङ्गलकार उत्तम
बहुवचन
उत्तमपुरुष एकवचनं महोदय क्षम्यतां
बहुवचनमस्ति
बहुवचनं वयं न गच्छेम उत्तमपुरुष बहुवचनं विधिलिङ्गलकार
किं पूर्णरूपं महोदय गच्छानि वा गच्छानि सारि विधिलिङ्गलकार
अत्र गच्छानि शृणोतु महोदय गच्छानि गच्छाम इति लोट् लकाररूपाणि परन्तु विधिलिङ्गरूपाणि विधिलिङ्गरूपं गच्छेम वयं न गच्छेम इति वक्तव्यम् इति सः पाठितवान् साधुः यः कोऽपि दृष्टः चेदपि ते शुकाः सर्वदा एतानि वाक्यानि वदन्ति स्म यः कोऽपि दृष्टः चेदपि अत्र वाक्यमस्ति कर्मण्यर्थे अस्ति वाक्यं वदतु महोदय अत्र किं भवति
कुत्र महोदय कोऽपि दृष्टः चेदपि ते शुकः सर्
यः कोऽपि
दृष्टः चेदपि ते शुकाः सर्वदा ते शुकाः कर्तरि प्रयोगं सर्वदा एतानि वाक्यानि वदन्ति स्म
कोऽपि
कर्मणि प्रयोगे कर्मणि प्रयोगे
कर्मणि प्रयोगे अस्ति
परिवर्तनं करणीयं यः कोऽपि दृष्टः चेदपि कर्मणि ओके दृष्टः
अत्र स्पष्टरूपेण अत्र कर्तृपदं कर्तृकरणयोः तृतीया इत्यनेन कर्तृपदं न उक्तमस्ति परन्तु कर्तृपदम् अपि योजयित्वा वदामश्चेत् किं वदामः
कर्तृपदं योजयित्वा तैः
तैः इत्युक्ते अत्र शुकैः
शुकैः
इत्युक्ते
शुकैः कोऽपि दृष्टाः चेदपि ते सर्वदा एतानि एव वाक्यानि वदन्ति स्म
उत्तमम् इत्युक्ते एतैः शुकैः कोऽपि दृष्टः चेदपि शुकः सर्वदा एतानि वाक्यानि वदन्ति स्म अनन्तरं किम् अभवत् अधुना अत्र शोभा भगिनी भवती पठतु अत्र
एतस्मिन् कथा कुत्र अस्ति भगिनि
अत्र महोदयः तृतीयां कथां त्यक्त्वा अत्र अपरिवर्तनीयः विधिनियमः कथां त्यक्त्वा एतां कथायाः आरम्भं कृतवान् तदर्थम् अत्र चतुर्थं करपत्रमस्ति चतुर्थे करपत्रे
मम पार्श्वे नास्ति चतुर्थं
भवती सेशन् वन् मध्ये प्रेषितवती भव महोदय तत्रैव अस्ति अत्र पतञ्जलि कदा अथवा
पतञ्जलि अस्ति अद्य
क्षम्यतां
क्षम्यताम् अस्तु अस्तु अधुना वयं किं कुर्मः त्यजामः वा अत्र अपरिवर्तनीयः विधिनियमः इति कथां पठामः इति मम
शोभा भगिनी
शोभा भगिनी अहं प्रेषितवती भवती
ओ धन्यवादः भगिनी अहं अधुना एव भवत्याः पूर्व ईमेल
गीताञ्जलि भगिनी भवती करोतु गीताञ्जलि भगिनी भवत्याः पार्श्वे करपत्रमस्ति चेत्
अस्तु अस्तु भगिनि अहं प्रयत्नं करोमि किं
एकदा साधुः कथायाः नाम मूर्खाः शुकाः प्रथमपरिच्छेदं वयं कृतवन्तः अतः
अस्तु भगिनि एकदा साधुः भिक्षाटनार्थम् अन्यं ग्रामं गतवान् सदा तेन मार्गेण गच्छन् कश्चन व्याधः वृक्षे उपविष्टान् तान् शुकान् दृष्ट्वान् तस्य मनसि आशा उत्पन्ना एते शुकाः गृहीत्वयाः इति सः यदा वृक्षस्य समीपम् आगतः तदा सर्वे शुकाः युगपत् गानम् आरब्धवन्तः व्याधः आगच्छति जालं प्रसारयति किन्तु वयं न गच्छेम इति एतत् श्रुत्वा व्याधः आश्चर्यसमन्वितः जातः सः कदापि एतादृशान् शुकान् न दृष्टवान् आसीत्
इत्युक्ते भवती किम् अवगतवती अत्र एकदा साधुः भिक्षाटनार्थम् अन्यं ग्रामं गतवान् तदा तेन मार्गेण कश्चन व्याधः वृक्षे उपविष्टान् शुकान् दृष्टवान् अत्र उपविष्टान् रूपं किम्
उपविष्टान् कृतवत् भूतकाले नो उपविष्टान् शत्रुप्रयोग भगिनि
अत्र पश्यतु भगिनि उपविष्टाः उपविष्टाः इत्युक्ते उपविष्टः उपविष्टाः इति क्तान्तरूपम् उपविष्टः उपविष्टाः बहुवचनं किमर्थं चेत् तत्र शुकाः उपविष्टाः तदर्थमेव अत्र सः दृष्टवान् व्याधः दृष्टवान् किं दृष्टवान् अथवा कान् दृष्टवान् उपविष्टान् शुकान् दृष्टवान्
साधुः व्याधं शुकान् दृष्टवान्
साधुः इति केचित् अत्र व्याधः एकवारं सः साधुः भिक्षाटनार्थम् अन्यं ग्रामं गत्वा गतवान् तदानीम् एव तत्र एकः व्याधः आगतवान् सः दृष्टवान् किं दृष्टवान् वृक्षे वदतु
वृक्षे उपविष्टान्
भगिनी अत्र पश्यतु अत्र रूपं भिन्नम् उपविष्टवान् इति पदं भिन्नम् उपविष्टान् भिन्नम् भिन्नं पदं रूपं भिन्नं इत्युक्ते अत्र उपविष्टाः शुकाः इत्युक्ते शुकाः इति पदस्य विशेषणम्
अस्ति
शुकाः उपविष्टाः कुत्र
वृक्षे
वृक्षे कः दृष्टवान्
शुकान् दृष्टवान्
कः दृष्टवान्
साधुः दृष्टवान्
न भगिनि अत्र व्याधः दृष्टवान्
व्याधः दृष्टवान् अस्तु व्याधः शुकः दृष्टवान् साधुः व्याधः दृष्टवान्
न साधुः बहिः गतवान् साधुः तस्मिन् आश्रमे शुकाः सन्ति साधुः बहिः गतवान् एकवारं तदा तत्र एकः व्याधः आगत्य अत्र शुकान् दृष्टवान् तदा किम् अभवत् तस्य मनसि व्याधस्य मनसि आशा उत्पन्ना
किं शुकाः गृहीत्वया इति
एते शुकाः ग्रहीतव्याः अत्रापि वाक्यं कर्मण्यर्थे अस्ति कर्मण्यर्थे पूर्णतया वदामश्चेत् किं वदामः अत्र आचार्य महोदय वदतु शुकाः ग्रहीतव्याः अत्र ग्रहीतव्याः इति पदं तव्यत्प्रत्ययः वदतु महोदय अत्र कर्मण्यर्थे कर्तृपदं योजयित्वा वदतु
भगिनि क्षम्यताम्
मया
सुन्दरं मया गृहीतव्याः के ग्रहीतव्याः? शोभा भगिनी वदतु, के ग्रहीतव्याः?
मया एते शुकाः ग्रहीतव्याः.
वाक्यं तथा भवति, परन्तु अत्र मया इति न उक्तमस्ति, परन्तु अध्यारोपणं कुर्मः. इत्युक्ते अत्र वाक्यं साधारणतया तव्यत् प्रत्ययः वा अनियर् प्रत्ययः वा, केवलं कर्मण्यर्थे एव भवति. तदर्थं मया ग्रहीतव्याः इति तस्य मनसि, व्याधस्य मनसि आशा उत्पन्ना. अनन्तरं यदा वृक्षस्य समीपं सः आगतः तदा सर्वे शुकाः युगपत् गानम् आरब्धवन्तः. युगपत् इति अञ्जलि भगिनी वदतु किम् अभवत्?
युगपत् इत्युक्ते आल् टुगेदर्,
सैमल्टेनियस्लि.
युगपत्
इत्युक्ते अत्र किं वदामः,
एकसमये गानम् आरब्धवन्तः.
उत्तमम्. एकस्मिन् एव समये सर्वे शुकाः गानम् आरब्धवन्तः. तत्र अन्यं पदमपि अस्ति युगपत् इत्युक्ते अत्र सैमल्टेनियस्लि इति वदामः, परन्तु संस्कृतभाषायाम् अन्यं पदमपि अस्ति, मुक्तकण्ठ तथा किं
वदामः,
सहसा इत्युक्ते मुक्तकण्ठ इत्युक्ते सर्वे एकस्मिन् एव समये गानं, यथा भवती उक्तवती एकस्मिन् एव समये गानम् आरब्धवन्तः. किं वदन्ति शुकाः, वदतु भगिनि अत्र वाक्यानि वदतु.
व्याधः आगच्छति, जालं प्रसारयति, किन्तु वयं न गच्छेम इति.
तथा ते शुकाः गानम् आरब्धवन्तः. एतत् श्रुत्वा व्याधः आश्चर्यसमन्वितः जातः. किमर्थम्?
एतत् गानम्, एतत् शुकान् गानं श्रुत्वा व्याधः आश्चर्य अनुभूतवान्.
आश्चर्यम् अनुभूतवान्
तदनन्तरं तदनन्तरम् अन्यत्र स्थानं गच्छति.
इत्युक्ते अत्र सः आश्चर्यसमन्वितः जातः, अपि च सः न कदापि एतादृशान् शुकान् दृष्टवान् आसीत्. इत्युक्ते शुकाः गानं कुर्वन्ति, तदर्थं तादृशान् शुकान् सः न कदापि दृष्टवान्, तदर्थं सः आश्चर्यम् अनुभूतवान्. तदनन्तरं किम् अभवत्? अधुना सतीश् महोदय भवान् पठतु अग्रिमपरिचयं.
अधुना मम पार्श्वे अस्ति, यदि भवती इच्छति चेत् पठामि.
वदतु भगिनि, पठतु.
अनन्तरम् एते शुकाः प्रशिक्षिताः, एतेषां ग्रहणं न सुकरम् इति चिन्तयन् सः व्याधः तत्रैव वृक्षस्य अधः उपविष्टवान्. फलप्राप्त्याशा अल्पा अपि नास्ति चेदपि झटिति प्रतिगन्तुम् अनिच्छन् सः तत्रैव जालं प्रसार्य बीजपूरफलस्य कांश्चन खण्डान् जालस्य उपरि संस्थाप्य कोऽपि एकः वा मूर्खः शुकः फलस्य आशाया जाले पतेत् चेदपि मम सौभाग्यमेव इति चिन्तयन् तत्रैव शयानः निद्रावशम् अगच्छत्.
उत्तमम्. इत्युक्ते सः चिन्तितवान् यत् एते शुकाः प्रशिक्षिताः. प्रशिक्षिताः इत्युक्ते
शिक्षितवन्तः.
इत्युक्ते प्रकृष्टरूपेण, विशेषरूपेण एते शुकाः शिक्षिताः, तदर्थम् एतेषां ग्रहणं न सुकरं. सुकरम् इत्युक्ते
न सुलभम्.
उत्तमम् इति चिन्तयन् सः, अत्र चिन्तयन् इत्यस्य रूपं किम्
इति चिन्तयन् शत्रुप्रयोग.
उत्तमं शत्रन्तरूपम्. इतोपि वदतु भगिनि, लिङ्गं किं, वचनं किं, विभक्तिः का?
चिन्तयन् इति चिन्तयन् व्याघ्रः चिन्तयन् शत्रुप्रयोगम् इति जानामि एकवचने.
उत्तमं. पुंलिङ्गे,
पुंलिङ्गे, पुंलिङ्गे यदि स्त्रीलिङ्गमस्ति चेत् चिन्तति अस्ति,
चिन्तयन्ति,
चिन्तयन्ति.
उत्तमम्. इत्युक्ते अत्र छत्रन्तरूपाणि साधारणतया त्रिषु लिङ्गेषु भवन्ति, अपि च सप्तसु विभक्तिषु भवन्ति. अत्र प्रथमाविभक्तौ एकवचने पुंलिङ्गे छत्रन्तरूपं दत्तमस्ति. साधारणतया छत्रन्तरूपं कुत्र तस्य उपयोगः भवति वदतु?
कण्टिन्यूस् प्रेसेण्ट् टेन्स्. द्वे कार्याणि एकसमये
एकस्मिन् एव, उत्तमस्मिन्
एकस्मिन्
एव समये कुर्मः चेत्
शत्रुप्रयोगम् उपयुज्य वाक्यं रचयामः.
अत्र अत्र कार्यद्वयं किम् अस्मिन् वाक्ये?
इति चिन्तयन् सः तत्रैव वृक्षस्य अधः, तत्र इति चिन्तयित्वा सः उपविष्टवान्.
उत्तमं. तदेव इत्युक्ते सः चिन्तितवान् अपि च उपविष्टवान्. अत्र एकस्मिन् एव समये सः चिन्तयन् उपविष्टवान्. यदि त्वान्तरूपं योजयित्वा वदामश्चेत् चिन्तयित्वा उपविष्टवान् इत्युक्ते प्रथमं कार्यम् अभवत्, द्वितीयं कार्यम् अनन्तरम्
अनन्तरम्
अभवत्. परन्तु अत्र एकस्मिन् एव समये युगपत्, युगपत् कार्यद्वयम् अभवत्, अतः शत्रन्तरूपम्. उत्तमम्. इत्युक्ते सः व्याधः चिन्तयन् उपविष्टवान्. फलप्राप्त्याशा, अत्र प्राप्त्याशा, अत्र समासः अस्ति, प्राप्तिः, प्राप्तेः आशा, षष्टिविभक्तिः लुप्यते. इत्युक्ते अत्र षष्टिविभक्तिः लुप्तः जातः. फलप्राप्ति आशा अल्पा अपि नास्ति तस्य, परन्तु चेदपि सः झटिति गृहं प्रति गन्तुम् अनिच्छन्. अनिच्छन् इत्युक्ते
अनिच्छन् न इच्छति,
न इच्छति. अत्रापि चत्रन्तरूपम्
अनिच्छन्. ओके.
अत्र सः अत्रापि अत्रापि चत्रन्तरूपम् अस्ति. सः तस्य फलप्राप्ति आशा किञ्चिदपि नास्ति, परन्तु सः झटिति गृहं प्रति गन्तुं न इष्टवान्. तत्र एव स्थातुम् इच्छति सः. तदर्थं सः तत्र एव जालं प्रसार्य,
जालं प्रसार्य बीजपूरफलस्य काश्चन, जालं प्रसार्य बीज
बीजपूरफलम् इत्युक्ते
बीजपूरफलं, बीजपूरित
तस्य नाम किं?
बीजपूरफलं
वंशसुधा भगिनी वदतु, बीजपूरफलम् इत्युक्ते किम्? अत्र वदति सत् भगिनि, न न भगिनि, संस्कृतभाषायां बीजपूरफलम् इत्युक्ते अहम् आङ्ग्लभाषां न जानामि, परन्तु तेलुगुभाषायां जाम इति वदामः. बीजपूरफलं सः, बीजपूरफलं तत्र नाम संस्कृतभाषायां नाम एव, नाम तदेव बीजपूरफलम्.
अनन्तरं
बीजपूरफलस्य कांश्चन खण्डान्, अत्र द्वितीया बहुवचनमस्ति, कांश्चन खण्डान् जालस्य उपरि संस्थाप्य, वदतु भगिनी रूपं.
संस्थाप्य लेबन्तरूपम् अस्ति.
उत्तमं.
संस्थाप्य
संस्थाप्य कोऽपि एकः वा मूर्खः शुकः फलस्य आशया जाले पतेत् चेदपि मम सौभाग्यमेव इति सः चिन्तितवान्. सः चिन्तयन् तत्र एव शयानः, सर्वे पश्यन्तु अत्र शयानः, शयानः इति पदं किं वदामः, शाणजन्तरूपं, शाणच् यथा भवती उक्तवती शत्रन्तरूपं, चिन्तयन् शत्रन्तरूपं. परन्तु परस्मैपदीनां कृते शत्रन्तरूपं भवति, परन्तु आत्मनेपदीरूपाणां कृते शाणजन्तरूपं भवति. अत्र शेते इति पदम् आत्मनेपदम् इति कृत्वा अत्र शयानः इति पदं शाणजन्तरूपं. सः इत्युक्ते अत्र कर्तृपदस्य विशेषणं भवति, अत्र व्याधस्य विशेषणं शयानः, व्याधः शयानः इति वदामः. सः किं कृतवान्, तत्र एव स्थित्वा व्याधः शयानः भूत्वा निद्रावशम् अगच्छत्, निद्रां कृतवान्. तदनन्तरं किम् अभवत् अत्र, कः पठति, शीघ्रं समापयामः अत्र. गीताञ्जलि भगिनी भवती पठतु अन्तिमं परिच्छेदं. भगिनी अस्ति वा?
नो चेत् भगिनी क्षम्यता, म्यूट् मध्ये क्षम्यता. कश्चित् समयानन्तरं व्याधस्य जागरणम् अभवत्. सर्वे शुकाः पूर्ववत् व्याधः आगच्छति, जालं प्रसारयति, किन्तु वयं जालदिशि न गच्छेम इति गायन्तः आसन्. व्याधः नेत्रे उन्मील्य उपश्यत् अपश्यत् क्षम्यताम्. सर्वे शुकाः जाले एव पतित्वा गायन्तः आसन्. मूर्खतां दृष्ट्वा हसन् व्याधः जालसहिततया सर्वान् शुकान् नीतवान्.
वदतु भगिनि, अत्र अधुना किम् अभवत्?
व्याधः स्वस्य मूर्ख स्वभावः दृष्टवान्
न अत्र किम् अभवत् इत्युक्ते, किञ्चित् समयानन्तरं व्याधस्य जागरणम् अभवत्. सर्वे शुकाः पूर्ववत् गायन्तः सन्ति. व्याधः आगच्छति, जालं प्रसारयति, किन्तु वयं जालदिशि न गच्छेम. अत्र जालदिशि रूपं किं वदतु?
जालदिशि दृष्धातु योगयित्वा
भगिनी, न तथा न. अत्र जालदिशि, दिशि इति सप्तमी यन्त्ररूपं, सप्तमी एकवचनं. दिक् दिशौ दिशः अत्र दिश् प्रातिपदिक सुबन्तपदं, सुबन्तपदस्य सप्तमी एकवचनरूपं दिशि.
दिक् दिक् इत्युक्ते डैरेक्षन्.
दिक् शब्दस्य सप्तमी अन्तरूपं.
किन्तु वयं जालदिशि न गच्छेम
इति गायन्तः आसन्. अत्र गायन्तः पदं रूपं किं भगिनि?
भूतकाले कृतवतु
न भगिनि. अत्र शोभा भगिनी वदतु, गायन्तः आसन्.
गायन्तः आसन् शत्रुप्रयोग एव अस्ति बहुवचने.
उत्तमं. गायन् गायन् इति पदस्य बहुवचनरूपं गायन्तः, शत्रप्रत्ययान्तरूपं. सः किं कृतवान्, नेत्रे उन्मील्य, अत्रदपि ल्यबन्तरूपम् अस्ति. सः व्याधः नेत्रे उन्मील्य, नेत्रे द्विवचनरूपं, नेत्रे उन्मील्य अपश्यत्, सः सः दृष्टवान्। किं दृष्टवान्? सर्वे शुकाः जाले एव पतित्वा गायन्तः आसन्। अनन्तरं सः तेषाम् इत्युक्ते शुकानां मूर्खतां दृष्ट्वा सः व्याधः जालसहिततया, अत्र पश्यतु जालसहिता तृतीयान्त पदमस्ति जालसहिता, तस्य तृतीयान्तं रूपं जालसहिततया। अनन्तरं जालसहिता इति प्रथमाविभक्त्यन्तरूपं, परन्तु तस्य तृतीयान्तं रूपं जालसहिततया इति भवति। अनन्तरं सः सर्वान् शुकान् गृहीत्वा गृहं गतवान्। उत्तमम्। अधुना अत्र स्थगयामः। सर्वेषां धन्यवादः। पुनः एकवारम् अग्रिमे सप्ताहे मिलामः।
धन्यवादः भगिनि।
धन्यवादः
भगिनि।
धन्यवादः। शुभरात्रिः भगिनि।
शुभरात्रिः।